तृतीयोऽध्यायः पञ्चकोशविवेकः गृहाहितं ब्रह्म यत्तत् गृहाहितं ब्रह्म यत्तत् पञ्चकोशविवेकतः पञ्चकोशविवेकतः बोध्वं शक्यं ततः कोश बोध्वं शक्यं ततः कोश पञ्चकं प्रविविच्यते पञ्चकं प्रविविच्यते देहात् अभ्यन्तरः प्राणः देहात् अभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः प्राणात् अभ्यन्तरं मनः ततः कर्ता ततो भोक्ता ततः कर्ता ततो भोक्ता गुहासेयं परम्परा गृहासेयं परम्परा पितृभुक्तान्न जाद्वीर्यात् पितृर्भुक्तान्न जाद्वीर्याच् जातो अन्नेनैव वर्धते जातो अन्नेनैव वर्धते देहसो अन्नमयो नात्मा देहसो अन्नमयो नात्मा प्राक्चोर्ध्वं तदभावतः प्राक्चोर्ध्वं तदभावतः पूर्वजन्मन्यसन्नेतत् पूर्वजन्मन्यसन्नेतत् जन्म सम्पादयेत् कथम् जन्म सम्पादयेत् कथम् भाविजन्मन्यसत्कर्मः भाविजन्मन्यसत्कर्म न भुञ्जीतेह सञ्जितम् न भुञ्जीतेह सञ्जितम् पूर्णो देहे बलं यच्छन् पूर्णो देहे बलं यच्छन् अक्षाणां यः प्रवर्तकः अक्षाणां यः प्रवर्तकः वायुः प्राणमयो नासौ वायुः प्राणमयो नासौ आत्मा चैतन्यवर्जनात् आत्मा चैतन्यवर्जनात् अहंतां ममतां देहे अहंतां ममतां देहे गेहादौ च करोति यः गेहादौ च करोति यः कामाद्यवस्थया भ्रान्तो कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः नासावात्मा मनोमयः लीना सुप्तौ वपुर्बोधे लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रग व्याप्नुयादानखाग्रग चिच्चायोपेतधीर्नात्मा चिच्चायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् विज्ञानमयशब्दभाक् कर्तृत्वकरणत्वाभ्यां कर्तृत्वकरणत्वाभ्यां विक्रियेणान्तरिन्द्रियं विक्रियेणान्तरिन्द्रियं विज्ञानमनसि अन्तः विज्ञानमनसि अन्तः बहिश्चैते परस्परं बहिश्चैते परस्परं काचिदन्तर्मुखा वृत्तिर् काचिदन्तर्मुखा वृत्तिः आनन्दप्रतिबिम्बवाक् आनन्दप्रतिबिम्बवाक् पुण्यभोगे भोगशान्तौ पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते निद्रारूपेण लीयते कदाचित्कत्वतो नात्मा कदाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् स्यादानन्दमयोऽप्ययम् बिम्बभूतो य आनन्द बिम्बभूतो य आनन्द आत्मासौ सर्वदा स्थिते आत्मासौ सर्वदा स्थिते ननु देहमुपक्रम्य ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु निद्रानन्दान्तवस्तुषु मा भूतात्मत्वमन्यस्तु मा भूतात्मत्वमन्यस्तु न कश्चिदनुभूयते न कश्चिदनुभूयते बाढं निद्रादयः सर्वे बाढं निद्रादयः सर्वे अनुभूयन्ते न चेतरः अनुभूयन्ते न चेतरः तथाप्येते अनुभूयन्ते तथाप्येते अनुभूयन्ते येन तं को निवारयेत् येन तं को निवारयेत् स्वयमेवानुभूतित्वात् स्वयमेवानुभूतित्वात् विद्यते नानुभाव्यता विद्यते नानुभाव्यता ज्ञातृज्ञानान्तराभावात् ज्ञातृज्ञानान्तराभावात् अज्ञेयो नत्वसत्तया अज्ञेयो नत्वसत्तया माधुर्यादिस्वभावानां माधुर्यादिस्वभावानाम् अन्यत्र स्वगुणार्पिणाम् अन्यत्र स्वगुणार्पिणाम् स्वस्मिन् तदर्पणापेक्ष स्वस्मिन् तदर्पणापेक्ष नो न चास्त्यान्यदर्पकम् नो न चास्यान्यदर्पकम् अर्पकान्तरराहित्ये अर्पकान्तरराहित्ये अप्येस्तेषां तत्स्वभावता अप्येस्तेषां तत्स्वभावता मा भूत्तथानुभाव्यत्वं मा भूत्तथानुभाव्यत्वम् बोधात्मा तु न हीयते बोधात्मा तु न हीयते स्वयं ज्योति भवत्येष स्वयं ज्योति भवत्येष पुरो अस्माद् भासते अखिलात् पुरो अस्माद् भासते अखिलात् तमेव भान्तमन्वेति तमेव भान्तमन्वेति तद्भासा भास्यते जगत् तद्भासा भास्यते जगत् येनेदं जानते सर्वं येनेदं जानते सर्वं तत्केनान्येन जानतां तत्केनान्येन जानतां विज्ञातारं केन विद्याच्च विज्ञातारं केन विद्याच् चक्तं वेद्येतु साधनं शक्तं वेद्येतु साधनं स वेत्ति वेद्यं तत्सर्वं स वेत्ति वेद्यं तत्सर्वं न अन्यतस्यास्ति वेदिता न अन्यतस्यास्ति वेदिता विदित अविदिताभ्यां तत् विदित अविदिताभ्यां तत् पृथक् बोधास्वरूपकं पृथक् बोधास्वरूपकं बोधे अपि अनुभवो यस्य बोधे अपि अनुभवो यस्य न कथं च न जायते न कथं च न जायते तं कथं बोधयेत् शास्त्रं तं कथं बोधयेत् शास्त्रं लोष्ठं नरसमाकृतिं लोष्ठं नरसमाकृतिं जिह्वा मा अस्ति न वेति युक्ति जिह्वा मा अस्ति न वेति युक्ति लज्जायै केवलं यथा लज्जायै केवलं यथा न बुध्यते मया बोद्धा न बुध्यते मया बोद्धा बोद्धव्या इति तादृशी बोधव्या इति तादृशी यस्मिन् यस्मिन् अस्ति लोके यस्मिन् यस्मिन् अस्ति लोके बोध तत्तत् उपेक्षणे बोध तत्तत् उपेक्षणे यद्बोधामात्रं तत् ब्रह्मा इति यद्बोधामात्रं तत् ब्रह्म इति एवं धि ब्रह्म निश्चय एवं धि ब्रह्म निश्चय पञ्चकोशपरित्यागे पञ्चकोशपरित्यागे साक्षिबोधावशेषतः साक्षिबोधावशेषतः स्वस्वरूप स एव स्याच् स्वस्वरूप स एव स्यात् शून्यत्वं तस्य दुर्घटं शून्यत्वं तस्य दुर्घटम् अस्ति तावत् स्वयं नाम अस्ति तावत् स्वयं नाम विवादाविषयत्वतः विवादविषयत्वतः स्वस्मिन्न अपि विवादश्चेत् स्वस्मिन्न अपि विवादश्चेत् प्रतिवाद्यत्र को भवेत् प्रतिवाद्यत्र को भवेत् स्व असत्त्वतु न कस्मैचिद् स्व असत्त्वतु न कस्मैचिद् रोचते विभ्रमं विना रोचते विभ्रमं विना अत एव श्रुतिः बाधम् अत एव श्रुतिः बाधम् ब्रूते च असत्त्ववादिन ब्रूते च असत्त्ववादिन असत् ब्रह्मेति चेद्वेद असत् ब्रह्मेति चेद्वेद स्वयमेव भवेत् असत् स्वयमेव भवेत् असत् अतो अस्य मा भूद्वेद्यत्वम् अतो अस्य मा भूद्वेद्यत्वम् स्वसत्त्वं त्वभ्युपेयताम् स्वसत्त्वं त्वभ्युपेयताम् कीदृक् तर्हीति चेत् पृच्छेत् कीदृक् तर्हीति चेत् पृच्छेत् ईद्वक्ता नास्ति तत्र हि ईदृक्ता नास्ति तत्र हि यदनीदृगतादृक्च यदनीदृतता दृक्च తత్స్వరూపం వినిశ్చిను అక్షాణాం విషయస్వేదృక్ పరోక్షస్తాదృగుచ్ఛయే విషయేనాక్ష విషయః స్వత్వాన్నాస్య పరోక్షత అవేద్య అపి అపరోక్షః అతః స్వప్రకాశో భవత్యయం సత్యం జ్ఞానమనంతం చేతి అస్తిహ బ్రహ్మలక్షణం సత్యత్వం బాధరాహిత్యం జగద్దాదైకసాక్షిణః బాధః కిం సాక్షికో బ్రూహి నత్వసాక్షిక ఇష్యతే అపనీతేషు మూర్తేషు హ్యమూర్తం శిష్యతే వియత్ శక్యేషు బాధితేష్వంతే శిష్యతే యత్త దేవతత్ సర్వబాధేన కించిచ్చేత్ యన్న కించిత్త దేవతత్ భాషా ఏవాత్ర విద్యంతే నిర్బాధం తావదస్తిహి అత ఏవ శ్రుతిర్బాధ్యం బాధిత్వా శేష యత్యదః స ఏష నేతిర్నేత్యాత్మేతి అతద్వ్యావృత్తిరూపతః ఇదం రూపం తు యద్యావత్ తత్యుక్తం శక్యతేఖిలం అశక్యోహ్యానిదం రూపః స ఆత్మాబాధవర్జితః సిద్ధబ్రహ్మణి సత్యత్వం జ్ఞానత్వం తు పురేరితం స్వయమేవానుభూతిత్వాద్ ఇత్యాదివచనైస్ఫుటం న వ్యాపిత్వాద్దేశతో అంతో నిత్యత్వాన్నాపి కాలతః న వస్తుతో అపి సర్వాత్మ్యాద్ ఆనంత్యం బ్రహ్మణి త్రిధా దేశకాలాన్యవస్తూనాం కల్పితత్వాచ్చ మాయయా न देशाधिकृतौ अन्तोऽस्ति न देशाधिकृतौ अन्तोऽस्ति ब्रह्मानन्त्यं स्फुटं ततः ब्रह्मानन्त्यं स्फुटं ततः सत्यं ज्ञानमनन्तं यत् सत्यं ज्ञानमनन्तं यत् ब्रह्म तद्वस्तु तस्य तत् ब्रह्म तद्वस्तु तस्य तत् ईश्वरत्वं च जीवत्वम् ईश्वरत्वं च जीवत्वम् उपाधिद्वयकल्पितम् उपाधिद्वयकल्पितम् शक्तिरस्त्यैश्वरी काचित् शक्तिरस्त्यैश्वरी काचित् सर्ववस्तुनियामिका सर्ववस्तुनियामिका आनन्दमयमारम्भ्य आनन्दमयमारम्भ्य गूढा सर्वेषु वस्तुषु गूढा सर्वेषु वस्तुषु वस्तुधर्मानियम्येरन् वस्तुधर्मानियम्येरन् शक्त्या नैव यदा यदा शक्त्या नैव यदा यदा अन्योन्यधर्मसाङ्कर्याद् अन्योन्यधर्मसाङ्कर्यात् विप्लवेत जगत् खलु विप्लवेत जगत् खलु छिच्छाया आवेशतः शक्तिः छिच्छाया आवेशतः शक्तिः चेतनेवा विभाति सा चेतनेवा विभाति सा तच्छक्ति उपाधिसंयोगात् तच्छक्तेरुपाधिसंयोगात् ब्रह्मैश्वे ब्रह्मैवेश्वरतां व्रजेत् ब्रह्मैवेश्वरतां व्रजेत् कोशोपाधिविवक्षायां कोशोपाधिविवक्षायां याति ब्रह्मैव जीवतां याति ब्रह्मैव जीवतां पिता पितामहश्चैकः पिता पितामहश्चैकः पुत्रपौत्रौ यथा प्रति पुत्रपौत्रौ यथा प्रति पुत्रादेरविवक्षायां पुत्रादेरविवक्षायां न पिता न पितामहः न पिता न पितामहः तद्वन्नेषो नापि जीवः तद्वन्नेषो नापि जीवः शक्तिकोशाविवक्षणे शक्तिकोशाविवक्षणे य एवं ब्रह्मवेदैष य एवं ब्रह्मवेदैष ब्रह्मैव भवति स्वयं ब्रह्मैव भवति स्वयं ब्रह्मणो नास्ति जन्मातः ब्रह्मणो नास्ति जन्मातः पुनरेश न जायते पुनरेश न जायते।